दुष्यगुंसानुषगुंसाभ्यां खणेनानुखणेन च तेनान्यो ओस्मत्समृच्छातैतपस्मै प्रसुवामसे ॐ संवर्चसापयसा सन्तनोभिरगन्महिमनसा सगुं शिवेन त्वष्टानो अत्र विदधातु राजो नुमार्ष्टु तन्वो ओ यद्विनिष्टम् ॐ आयुष्टे विश्वतो दधदयमग्निरुवरेण्यः पुनस्ते प्राण आयाति परायक्ष्मगुं सुवामिते ॐ आयुर्ता अग्ने हविषो जुषाटो घृतप्रतीको घृतयो निरेधि घृतम् पीत्वामथ चारुगव्यम् पितेव पुत्रमभिरक्षतादिमम् ॐ निममग्न आयुषे वर्चसे कृति तिग्ममोजो वरुणसगुं शिशाधि मा ते वा आस्मा अदिते शर्म यच्च विश्वे देवा जलदष्टिर्यथा सत् ॐ अग्न आयोगुं शिपवस आसुवार्जमिषं च नः आरे बाधस्व दुच्छुना अग्ने पवस्व स्वपा अस्मे वर्चः सुवीर्यम् दधद्रयिम् मयि पोषम् ॐ अग्निरृषिः पवमानः पाञ्चजन्यः पुरोहितः कमीमहे महागयम् ॐ अग्ने जातान् प्रणुदानः सपद्मान् प्रत्यजातान् जातवेदोऽनुदस्व अस्मे दीनिः सुमना अहेळम् चर्मन्ते स्यामत्रिवरोथ उद्भौ ॐ सहसा जातान् प्रणुदानः सपत्नान् प्रत्यजातान् जातवेदोऽनुदस्व अथिनो ब्रूहि सुमनस्य मानो वयज्ञस्याम प्रणुदानः सपत्नान् ॐ अग्नेयो नोभितो जनो मृतो बालो जिघागुंसति तागस्त्वम् वृत्रहञ्जहिव स्वस्मभ्यमाभर ॐ अग्नेयो नोभिता सति समानो यश्च निष्ठ्यः त्वम् वयगुं समिधम् कृत्वा तुभ्यमग्नेऽपि दध्मसि ॐ यो नश्यपादशपतो यश्च नश्यपतश्यपात् उषाश्च तस्मै निमृज्य सर्वम् पापगुं समोहताम् ॐ यो नः सपत्नो यो रणो वर्तोऽभिदासति देवाः इध्वस्येव प्रख्यायतो मातस्योच्छेषि किञ्चन ॐ यो मान् द्वेष्टि जातवेदोऽयम् चाहम् द्वेष्मि यश्च माम् सर्वागस्तानग्ने सन्दहयागश्चाहम् द्वेष्मि ये च माम् ॐ यो अस्मभ्यमरातीयाद्यश्च नो द्वेषते जनः निन्दाद्यो अस्मान्निप्सार्च सर्वागस्तान्मश्मशाकुरु ॐ सगुंसितम् मे ब्रह्म सगुंसितम् वीर्या अम्बलम् सगुंसितम् क्षत्रम् मे जिष्णुयस्याहमस्मि पुरोहितः ॐ उदेशाम् बाहो अतिरमुद्वर्चो अथो बलम् क्षिणो विब्रह्मणा मित्रारुन्नया विश्वाम् अहम् ॐ पुनर्मनः पुनराजम् आगात् पुनश्चक्षुः पुनः श्रोत्रम् आगात् पुनः प्राणः पुनराकोतम् आगात् पुनश्चित्तम् पुनराजीतम् आगात् वैश्वानरो मे दग्धस्तनोपा अवबाधतान् दुरितानि विश्वा ॐ शिकुम्भे व्याघ्र उतया पृताको विशिरग्नो ब्राह्मणे सूर्येया इन्द्रय्या देवी सुभगा जजान सा न आगन्वर्चसा संविदाना ॐ या राजन्नेदम् बुभावायतायाम् अश्वस्य क्रन्ये पुरुषस्य मायौ इन्द्रय्या देवी सुभगा जजान सा न आगन्वर्चसा संविदाना ॐ या हस्तिनिद्वीपिनि या हिरण्ये त्रिशिरश्वेषु पुरुषेषु गोषु इन्द्रय्या देवी सुभगा जजान सा न आगन्वर्चसा संविदाना ॐ रथे अक्षेषु वृषभस्य वाजे वाते पर्जन्ये वरुणस्य शुष्मे इन्द्रय्या देवी सुभगा जजान सा न आगन्वर्चसा संविदाना ॐ अग्नेभ्यावर्तिन्नभिन आवर्तस्वायुषा वर्चसा संज्ञा मेधया प्रजया धनेन ॐ अग्ने अङ्गिरश्यतन्ते सन्वावृतः सहस्रन्त उपावृतः तासाम् पोषस्य पोषेण पुनर्नो नष्टमाकृति पुनर्नो रजिमाकृति ॐ पुनरोर्जानिवर्तस्व पुनरग्न इषायुषा पुनर्नः पाहि विश्वतः ॐ सहरय्यानि वर्तस्वाग्ने पिन्वस्वधारया विश्वप्स्या विश्वतस्परे ॐ वैश्वानराय प्रतिवेदया भोजति दृढकम् सङ्करो देवतासु स एतान् पाशान् प्रमुचम् प्रवेदसनो मुञ्चातु दुरितादवद्यात् वैश्वानरः पवयान्नः पवित्रैर्यच्छङ्गरमभिधावाम्याशाम् अनाजानन्मनसा याचमानो यदत्रैनो अवतत्सु वामि अमीये सुभगे दिवि विचृतौ नाम तारके प्रेहावृतस्य यच्छतामेतद्बद्धकमोचनम् विजिहीर्ष्वलोकान् प्रतिबन्धान् मुञ्चासि बद्धकम् योनेरिव प्रच्युतो गर्भः सर्वान् पथो अनुष्व स प्रजानन् प्रतिगर्भेत विद्वान् प्रजापतिः प्रथमजारुतस्य अस्माभिर्दत्तम् जरसः परस्तादच्छिन्नन्तन्तुमनुसञ्चरेम ततन्तम् त्वमन्वेके अनुसञ्चरन्ति येषाम् दत्तम् पित्र्यायनवत् अवन्द्वेके ददतः प्रयच्छाद्दातुम् चेच्छक्रवागुंसः स्वर्ग एषाम् आरभेथामनुसगुम् रभेथागुंसपादम् पन्थामवथो घृतेन यद्वाम् पूर्तम् परिविष्टम् यदग्नो तस्मै गोत्रायेह जायापति सगुम् रभेथाम् यदन्तरिक्षम् पृथिवीमुतद्यायन्मातरम् पितरम् वाजिः गुंसिमा अग्निर्मातस्मादेन सोगार्हपत्य उन्नो नेषद्दुरितायानि च कृमा भूमिर्मातादितिर्नो जनित्रम् भ्रातान्तरिक्षमभिषस्त एनः योन्नः पिता पितृयाच्छम्भवासि जापि मित्वा माविरिच्छि लोकात् यत्र सुहार्दः सुकृतो मदन्ते विहाय लोकम् तन्वा अगस्वायाम् अश्लोणाङ्गैरः कृताः स्वर्गे तत्र पश्येम पितरम् च पुत्रम् यदन्नमद्यनृतेन देवा दास्यन्नदास्यन्नुत वा करिष्यन् यद्देवानाम् चक्षुष्यागो अस्ति यदेव किञ्च प्रतिजग्राहमग्निर्मा तस्मादृढम् करोतु यदन्नमद्विबहुधा विलोपम् वासो हिरण्यमुदकामजामविम् यद्देवानाम् चक्षुष्यागो अस्ति यदेव किञ्च प्रतिजग्राहमग्निर्मा तस्मादृढम् करोतु यन्मया मनसा वाचा कृतमेनः कदाचन सर्वस्मात्तस्मान्मेलितो मोद्धित्वगुम् हि वेत्थ यथा कथम् ॐ शान्तिश्चान्तिश्चान्तिः हरिः ॐ